इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। राष्ट्रिय प्रजातान्त्रिक गठबन्धनस्य प्रत्याशी एवं महाराष्ट्रस्य राज्यपालः सीपी राधाकृष्णन् भारतस्य नूतनः उपराष्ट्रपतिः भविष्यति। सः आईएनडीआईए गठबन्धनस्य प्रत्याशिनं तथा सर्वोच्चन्यायालयस्य पूर्वन्यायाधीशं बी सुदर्शन रेड्डी इत्यमुं द्विपञ्चाशदुत्तर एकशतं मतानाम् अन्तरालेन विजितवान्। उपराष्ट्रपति निर्वाचनस्य मतगणनायाः अनन्तरं पत्रकारान् ज्ञापयन् राज्यसभा महासचिवः रिटर्निंग अधिकारी च पीसी मोदी अवदत् यत् आहत्य एकाशीत्युत्तर सप्तशतं निर्वाचकानां मध्ये सप्तषष्ट्युत्तर सप्तशतं सांसदाः निर्वाचने मतदानं कृतवन्तः। राष्ट्रपति द्रौपदी मुर्मुना सीपी राधाकृष्णनवर्याय भारतस्य उपराष्ट्रपतित्वेन निर्वाचनार्थं अभिनन्दनं कृतम्। प्रधानमन्त्री नरेन्द्रमोदी सीपी राधाकृष्णनवर्येण सह मिलित्वा उपराष्ट्रपतिपदाय निर्वाचनार्थम् अभिनन्दनं कृतवान्। उपराष्ट्रपतिपदाय निर्वाचितेन सीपी राधाकृष्णनवर्येण राष्ट्रवादी विचारधारायाः विजयरूपेण द्वितीय उच्चतमं संवैधानिकपदं प्रति स्वस्य निर्वाचनस्य वर्णनं कृतम्। विजयानन्तरं प्रथमे सार्वजनिकभाषणे निर्वाचितः उपराष्ट्रपतिः सीपी राधाकृष्णन् अवदत् यत् विपक्षघटबन्धनेन उक्तमासीत् यत् इदं निर्वाचनं वैचारिकः युद्धः अस्ति, परन्तु मतदानानन्तरं अवगन्तुं शक्यते यत् राष्ट्रवादी विचारधारा विजयी उद्भूता वर्तते। राधाकृष्णन् महोदयः अवदत् यत् एषः प्रत्येकस्य भारतीयस्य विजयः अस्ति, तथा च यदि अस्माभिः सप्तचत्वारिंशदुत्तर द्विसहस्रतम वर्षपर्यन्तं भारतं विकसित राष्ट्रं कर्तव्यं तर्हि अस्माभिः सर्वैः मिलित्वा कार्यं कर्तव्यं भवति। सः अवदत् यत् स्वस्य नूतन क्षमतायां सः राष्ट्रस्य विकासाय यथाशक्ति प्रयतते। नेपालस्य प्रधानमन्त्री केपी शर्मा ओली इत्यनेन देशे सर्वत्र व्यापकरूपेण हिंसक विरोध प्रदर्शनानन्तरं स्वपदात् त्यागपत्रं दत्तम्। ओली इत्यस्य पदत्यागं तदा अभवत् यदा शतशः प्रदर्शनकारिणः सर्वकारविरोधी घोषणानि उद्घोषयन्तः तस्य कार्यालयं प्रविष्टवन्तः। आन्दोलनकारिणः सोमवासरे विरोध आन्दोलनेषु सम्भूतमृत्योः उत्तरदायित्वस्य आग्रहं कुर्वन्ति स्म। अपरत्र नेपालस्य राष्ट्रपतिः रामचन्द्र पौडेलः प्रतिकूलस्थितेः शान्तिपूर्णसमाधानं सुनिश्चेतुम् आन्दोलनकारिणां नागरिकाणां तथा सर्वपक्षाणां सहकार्यं याचितवान् अस्ति। व्यापकहिंसायाः अनन्तरं अशान्तिं नियन्त्रयितुं नेपालीसेनया अपि हस्तक्षेपः कृतः वर्तते। प्रधानमन्त्रिणा नरेन्द्रमोदिना नेपालदेशस्य घटनाक्रमेषु चर्चां कर्तुं सुरक्षामण्डल समितेः अध्यक्षता कृता। सोशल मीडिया सन्देशे प्रधानमन्त्रिणा उक्तं यत् नेपाले हिंसा हृदयविद्रावकम् अस्ति, नेपाले युवानां प्राणहानि विषये स्वस्य दुःखं प्रकटयन् प्रधानमन्त्री मोदी नेपालस्य स्थिरता शान्तिः समृद्धिः च सर्वाधिकमहत्त्वम् इति रेखाङ्कितवान्। मोदी महोदयः नेपालदेशस्य नागरिकेभ्यः अपि शान्तिसमर्थनार्थम् आह्वानं कृतवान्। केन्द्रीय वस्त्रोद्यममन्त्रिणा गिरिराजसिंहेन उक्तं यत् भारतीयवस्त्रेषु आत्मनिर्भर भारतस्य दृष्टिः स्वदेशीयस्य कालातीतभावना च मूर्तरूपः भवति। श्रीसिंहः नवदिल्ल्यां वस्त्रपरिधानक्षेत्रस्य सूक्ष्म लघु मध्यम वस्त्रनिर्यातकैः सह परामर्शसभां सम्बोधयन्नासीत्। सरस आजीविका मेला इत्यस्य पञ्चमदिने ह्यः ग्रामीणविकासस्य केन्द्रीयमन्त्री शिवराजसिंह चौहानः दिल्ली मुख्यमंत्री रेखागुप्ता च राजधान्यां मेजर ध्यानचंद क्रीडांगणे प्रचाल्यमानां सरस आजीविकमेलाम् अवलोकितवन्तौ। अस्मिन् अवसरे चौहान महोदयेन सरस मेला एप इत्यस्य विमोचनं कृत्वा विभिन्न राज्येभ्यः लक्षपति भगिनीभ्यः अभिनन्दनं कृतम्। एशियाकप इत्यस्य सप्तदशतमे संस्करणस्य उद्घाटनक्रीडायां क्रिकेट प्रतियोगितायां अफगानिस्तानदेशेन अबुधाबीनगरे हांगकांग विरुद्धं चतुर्णवति धावनांकैः बृहद् विजयं पञ्जीकृतम् इति वार्ताः।